गणानाम् त्वा गणपतिगुं हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आन शृण्वन्नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती धीनामवित्र्यवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतो तैषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातयिषु शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृडया या ते रुद्रशिवा तनुरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशेः यामिषुम् गिरिशन्तहस्ते विभर्ष्यस्तवे शिवाङ्गिरिस्रताम् सुरुमाहिगुंसि पुरुषम् जगत् शिवे नवचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुं सुमना असत् अध्यवोचदधिवक्ता प्रथमो दैव्योऽभिषक् अहिगुश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षु श्रुता सहस्रतो वैशागुम् हेडयीमहे असौ यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वाभूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीरुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्मियोर्जाम् याश्च ते हस्त इषवः पराता भगवो वपा अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु धे निशीर्य शल्यानाम् मुखा शिवो नः सुमना भवा विर्जम् धनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येशव आभुरस्य निशम् गतिः या ते भीतिर्मीढुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानाततताय धिष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो एतिरस्मान् वृणक्तु विश्वतः अतो य इषु दिस्तभारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः सस्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्लुषाय विव्याधिनेन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय तथा विनेक्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय सपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नमः कृष्णभीताय धावते सत्त्वनां पतये नमः नमः सहमानाय निव्याधिनाव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे सेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः सृकाविभ्यो जिघागुंसद्भ्यो मुष्णतां पतये नमो नमोऽसिमद्भ्यो नक्तञ्चरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्योधन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यश्चयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापदिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपदिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमस्तेनाभ्य सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्य कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्य श्वनिभ्यश्च वो नमो नमः श्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मेढुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च नमः शोभ्याय च प्रतिचर्याय च नमो याम्याय च हेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेनाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमस्ते क्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः कात्याय च नीप्याय च नमः शोध्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वश्याय च नमो मेद्याय च विद्युत्याय च नमः ऐत्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेर्त्याय च कौल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय चालाद्याय च नमः शश्व्याय च वेण्याय च नमः सिकत्याय च प्रवाह्याय च नम हिरण्याय च प्रपथ्याय च नमः हिगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः कात्याय च वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशत्याय च नमोपगुरमाणाय चाभिघ्नते च नमः आच्छिदते च प्रक्षिदते च नमो वक्किलिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणाम् येषाम् पशूनाम् माभेर्मारोमो येषाम् किञ्चनाममत् याते रुद्रशिवा तनुशिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तयानो मृडजीवसे इमागुं रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यथा नः शमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो तनो मयस्कृधि क्षयद्वीराय नमसा विधेमते यच्छञ्चयोश्च मनुरायजे पिता तदश्यामतव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वधे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्थौकेतनये मान आयुषि मानो कोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामितो वधे अविष्मन्तौ नमसा विधेमते आराध्ये गोघ्न उत पूरुषग्ने क्षयद्वीराय सुम् नमस्मे ते अस्तु रक्षा च नो अधि च देव ब्रूयधा च नः शर्म यच्च द्विवर्हाः स्तुभिश्रुतम् गर्त सदयुवानम् मृगण्ड भीममुपहत्नुमुग्रम् मृडाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरघायोः अवस्थिरा मघवद्भ्यस्तनुष्वमीढ्वस्तोकायतनयाय मृडया मीढुष्टम शिवतम शिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्रिम् वचा न आचर पिनाकम् बिभ्रदागहे निकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोऽन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रा बाहुवोस्तव हेतयः सामीशानो भगव पराचीनामुखाकृधे सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम् तेषागुम् सहस्रयो जने वधन्वानि तन्मसे अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि नीलग्रीवा शितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवा शितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु तस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखास कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पथाम् पथिरक्षय ऐलवृदाय व्युधः ఏతీర్థాని ప్రచరంతి శృకావంతో నిషంగిణః యేతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావితస్థిరే తేషాగుం సహస్రయో జనే వధన్వాని తన్మతే నమో రుద్రేభ్యో యే పృథివ్యాం యేంతరిక్షే యే దివ్యే సామన్నం వాతో వర్షమిషవస్తేభ్యో దశ ప్రాచీర్దశ దక్షిణా దశ ప్రదేచీర్దశో దేచీర్దశోర్ధ్వాస్తేభ్యో నమస్తే నో మృడయంతు తేయం విష్మో యశ్చ నో ద్వేష్టితం భోజం వేదధామి ్రయంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ వంధనాన్ మృత్యోర్ముక్షేయమామృతాత్ యో రుద్రో అగ్నౌ యో అప్సు ఓషధీషు యో రుద్రో విశ్వ భువన వివేశ తస్మై రుద్రాయ నమో అస్తు ఏతే సహస్రమయుతం పాశా మృత్యో మర్త్యాయ హంతవే తాన్యజ్ఞస్య మాయయా సర్వ నవయజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథిరసి రుద్రో మా విశాంతకః హేనాన్యేనాప్యాయస్వా నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహే సముష్టుయస్సుదన్వాయు విశ్వస్య క్షయతి భేషజస్య యక్ష్వా మహేశౌ మనసాయ రుద్రం నమో విర్దేవమసురం దువస్య అయం మే హస్తో భగవానయం మే భగవత్తరః అయం మే విశ్వభేషజోయగు శివాభిమర్శనః ఓం శాంతి శాంతి శాంతిః ఓం శంజ మే మయశ్చ మే ప్రియం చ మేను కామశ్చ మే కామశ్చ మే సౌమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధర్తా చ మే క్షేమశ్చ మే ధృతశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రసోశ్చ మే తీరం చ మే లయశ్చ మరుతం చ మే మృతం చ మే యక్ష్మం చ మే నామయశ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మే న మిత్రం చ మే భయం చ మే సుఖం చ మే శయనం చ మే సూషా చ మే సుదినం చ మే శాంతి 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 ఓం అత్రినాత్వా క్రిమే హన్మే కణ్వేన జమదగ్నినా విశ్వావసోర్బ్రహ్మణా హతః క్రిమీనాగుం రాజా అప్యేషాగుస్థపతిర్హతః అథో మాతాథో పితా అథో స్థూద్రా అథో క్షుద్రా అథో కృష్ణా అథో శ్వేతాః అథో ఆశాతికాహతాః శ్వేతాభిః సహ సర్వే హతాః ఆహరావద్యా శ్రుతస్య హవిషో యథా తత్ సత్యం యదముయ్ రమస్య జంభయో ఆదధామి తథా హి తత్ కణ్ఫణ్వసే ఓం శాంతి 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 ఓం. భద్రం కర్ణేభిశృణుయామ దేవాః భద్రం పశ్యేమాక్షభిర్యజత్రాః స్థిరైరంగైః సుష్ఠు వాగుంసస్తనూభిః వ్యశేమ దేవహితం యదాయుః స్వస్తి న ఇంద్రో వృద్ధశ్రవాః స్వస్తి న పూషా విశ్వవేదాః స్వస్తి నస్తార్క్షో అరిష్టనేమిః స్వస్తి నో బృహస్పతిర్దధాతో ఓం శాంతి శాంతి శాంతిః అథ సూర్యాథర్వాంగిరసంధ్యాఖ్యాస్యామః బ్రహ్మా ఋషిః గాయత్రీ ఛందః ఆదిత్యో దేవతా హంసః సోహమగ్నినారాయణ యుక్తం బీజం హృల్లేఖా శక్తిః వియదాది సర్గసంయుక్తం కీలకం చతుర్విధ పురుషార్థ సిద్ధ్యర్థే వినియోగః షట్స్వరారూఢేన బీజేన షడంగం రక్తాంబుజ సంస్థితం సప్తాశ్వరథినం హిరణ్యవర్ణం చతుర్భుజం పద్మద్వయాభయవరదహస్తం కాలచక్రప్రణేతారం శ్రీసూర్యనారాయణం య ఏవం వేద స వై బ్రాహ్మణః ఓం భూర్భువః సువః తత్సవితుర్వరేణ్యం భర్గో దేవస్య ధీమహి ధియో యో నః ప్రచోదయాత్ సూర్య ఆత్మా జగతస్తస్త్వశశ్చ సూర్యాద్వై ఖల్విమాని భూతాని జాయంతే సూర్యాద్యజ్ఞః పర్జన్యోన్నమాత్మా నమస్తే ఆదిత్య త్వమేవ ప్రత్యక్షం కర్మ కర్తారి త్వమేవ ప్రత్యక్షం బ్రహ్మారి త్వమేవ ప్రత్యక్షం విష్ణురసి త్వమేవ ప్రత్యక్షం రుద్రోసి త్వమేవ ప్రత్యక్షం మృగసి త్వమేవ ప్రత్యక్షం యజురసి త్వమేవ ప్రత్యక్షం సామాసి త్వమేవ ప్రత్యక్షమసర్వాసి త్వమేవ సర్వం ఛందోసి ఆదిత్యాద్వాయుర్జాయతే ఆదిత్యాద్భూమిర్జాయతే ఆదిత్యాలాపో జాయంతే ఆదిత్యాజ్యోతిర్జాయతే ఆదిత్యాద్వ్యోమదిశో జాయంతే ఆదిత్యాద్దేవా జాయంతే ఆదిత్యాద్వేదా జాయంతే ఆదిత్యో వా ఏష ఏతన్మండలం తపతి అసావాదిత్యో బ్రహ్మా ఆదిత్యో అంతఃకరణమనోబుద్ధిచిత్తాహంకారాః ఆదిత్యో వై వ్యానశ్రమానో దానోపానః ప్రాణః ఆదిత్యో వై శ్రోత్రత్వక్చక్షూరసనగ్రాణాః ఆదిత్యో వై వాక్పాణిపాదపాయూపస్థాః ఆదిత్యో వై శబ్దస్పర్శరూపరసగంధాః ఆదిత్యో వై వచనాదానాగమనవిసర్గానందాః ఆనందమయో విజ్ఞానమయో విజ్ఞానఘన ఆదిత్యః నమో మిత్రాయ భానవే మృత్యోర్మాపాయి భ్రాజిష్ణవే విశ్వహేతవే నమః సూర్యాద్భవంతి భూతాని సూర్యేన పాలితాని తు సూర్యే లయం ప్రాప్నువంతి యః సూర్యః సోహమేవ చ చక్షుర్నో దేవస్సవితా చక్షుర్న ఉత పర్వతః చక్షుర్ధాతా దధాతునః ఆదిత్యాయ విద్మహే సహస్రకిరణాయ ధీమహి తన్నః సూర్యః ప్రచోదయాత్ सविता पुरस्तात् सविता पश्चात्तात् सवितोत्तरात् सविता धरात् सविता नः सुवतु सर्वतादिकम् सविता नोरासताम् दीर्घमायुः ओमित्येकाक्षरम् ब्रह्मा गृह्यति द्वे अक्षरे सूर्य इत्यक्षरद्वयम् आदित्य इति त्रीण्यक्षराणि एतस्यैव सूर्यस्याष्टाक्षरो मनुः यः सदाहरहर्जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति सूर्याभिमुखो जप्त्वा महाव्याधिभयात् प्रमुच्यते अलक्ष्मीर्नश्यति अभक्ष्यभक्षणात् पूतो भवति अगम्यागमनात् पूतो भवति पतितसम्भाषणात् पूतो भवति असत्सम्भाषणात् पूतो भवति मध्याह्ने सूर्याभिमुखः पठेत् सद्योत्पन्नपञ्चमहापातकात् प्रमुच्यते सैषा सावित्रीम् विद्याम् न किञ्चिदपि न कस्मैश्चित् प्रशंसयेत् य एताम् महाभागः प्रातः पठति स भाग्यवान् जायते पशून् विन्दते वेदार्थम् लभते त्रिकालमेतज्जप्त्वा क्रतुशतफलमवाप्नोति हस्तादित्ये जपति स महामृत्युम् तरति स महामृत्युम् तरति य एवम् वेद इत्युपनिषत् भद्रम् कर्णेभिः शृणुयाम देवाः भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः सुष्ठुवागुंसस्तनूभिः व्यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्षो अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति 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 ॐ सहनावतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः अथ पुरुषो ह वै नारायणो कामयतः प्रजा सृजेयेते नारायणात् प्राणो जायते मनः सर्वेन्द्रियाणि च खम् वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी नारायणाद्ब्रह्मा जायते नारायणाद्रुद्रो जायते नारायणादिन्द्रो जायते नारायणाद्प्रजापतयः प्रजायन्ते नारायणाद्वादशादित्या रुद्रावसवः सर्वाणि च चन्दागुंसे नारायणाद्देव समुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते ॐ अथ नित्यो नारायणः ब्रह्मा नारायणः शिवश्च नारायणः शक्रश्च नारायणः द्यावा पृथिव्यौ च नारायणः कालश्च नारायणः दिशश्च नारायणः ऊर्ध्वश्च नारायणः अधश्च नारायणः अन्तर्बहिश्च नारायणः नारायण एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् निष्कलो निरंजनो निर्विकल्पो निराख्यात शुद्धो देव एको नारायणः न द्वितीयोऽसि कश्चित् एवं वेदा स विष्णुरेव भवति स विष्णुरेव भवति ओमित्यग्रे व्याहरेत् नम इति पश्चात् नारायणायेत्युपरिष्टात् ओमित्येकाक्षरम् नम इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि एतद्वै नारायणस्याष्टाक्षरम् पदम् यो ह वै नारायणस्याष्टाक्षरम् पदमध्येति अनवब्रुवः सर्वमायुरेति विन्दते प्राजापत्यगुम्राय स्पौषम् गौपत्यम् ततो मृतत्वमश्नुते ततो मृतत्वमश्नुत इति य एवम् वेद प्रत्यगानन्दम् ब्रह्म पुरुषम् प्रणवस्वरूपम् अकार उकारमकार इति तानेकदा समहरत्तदेतदोमिति यमुक्त्वा मुच्यते योगि जन्म संसारबन्धनात् ॐ नमो नारायणायेति मन्त्रोपासकः वैकुण्ठभुवनलोकम् गमिष्यति सरिदम् परम् पुण्डरीकम् विज्ञानघनम् तस्माद्दरिदावन्मात्रम् ब्रह्मण्यो देवके पुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतस्थमेकम् नारायणम् कारणरूपमकारपरब्रह्म एतदथर्वशिरो यो धीते प्रातरधेयानो रात्रिकृतम् पापम् नाशयते सायमधेयानो दिवसकृतम् पापम् नाशयते माद्यन्दिनमादित्याभिमुखो धेयान पञ्चपातकोपपातकात् प्रमुच्यते सर्ववेदपारायण पुण्यम् लभते नारायण सायुज्यमवाप्नोति नारायण सायुज्यमवाप्नोति य एवम् वेद इत्युपनिषद सहनावतु सह नौ भुनक्तु सह वीर्यम् करवावहे तेजस्विनावधीतमस्त्वमाविन्द्विषामहे शान्ति शान्ति शान्तिः ॐ तेजोऽसि तत्ते प्रयच्छामि तेजस्वदस्तु मे मुखम् तेजस्वच्छिरो अस्तु मे तेजस्वान् विश्वतः प्रत्यङ् तेजसा सम्पिबृद्धि मा ओजोऽसि तत्ते प्रयच्छामि ओजस्वदस्तु मे मुखम् ओजस्वच्छिरो अस्तु मे ओजस्वान् विश्वतः प्रत्यङ् ओजसा सम्पिबृद्धि मा पयोऽसि तत्ते प्रयच्छामि पयस्वदस्तु मे मुखम् पयस्वच्छिरो अस्तु मे पयस्वान् विश्वतः प्रत्यङ् पयसा सम्पिबृद्धि मा आयुरसि तत्ते प्रयच्छामि आयुष्मदस्तु मे मुखम् आयुष्मच्छिरो अस्तु मे आयुष्मान् विश्वतः प्रत्यङ् आयुषा सम्पिबृद्धि मा इममग्न आयुषे वर्चसे कृधे प्रियगुम् मेतो वरुण सोमराजन् मा देवा स्मा अरिते शर्म यच्च विश्वे देवाजरदष्टिर्यथा सत् आयुरति विश्वायुरति सर्वायुरति सर्वमायुरति यतो वातो मनोजवाः यतः क्षरन्ति सिन्धवः तासाम् त्वा सर्वासागुम् रुचाम् अभिषिञ्चामि वर्चसा समुद्र इवासि गम्भणा सोम इवास्यदाभ्यः अग्निरिव विश्वतः प्रत्यन्य सूर्य इव ज्योतिषा विभोः अपाम् यो द्रवणे रसः तमहमस्मामुष्यायणाय तेजसे ब्रह्मवर्चसाय गृह्णामि अपाम्य ऊर्मौरसः तमहमस्मामुष्यायणाय ओजसे वीर्याय गृह्णामि अपाम्यो मध्यतो रसः तमहमस्मामुष्यायणाय पुष्टये प्रजननाय गृह्णामि अपाम्यो यज्ञियो रसः तमहमस्मामुष्यायणाय आयुषे दीर्घायुत्वाय गृह्णामि शान्ति शान्ति शान्तिः ॐ शन्नो मित्रशं वरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मवदि त्वमेव प्रत्यक्षम् ब्रह्म वदिष्यामि ऋतम् वदिष्यामि सत्यम् वदिष्यामि तन्मामवतु तद्भक्तारमवतु अवतु माम् अवतु भक्तारम् ॐ शान्ति शान्ति शान्तिः वेदमनुचाचार्यो अन्तेवासिनमनुशास्ति सत्यम् वदा धर्मम् चर स्वाध्यायात्मा प्रमदः आचार्याय प्रियम् धनमाहृत्य प्रजातन्तुम् मा व्यवच्छेत्सि सत्यान प्रमदितव्यम् धर्मान प्रमदितव्यम् कुशलान प्रमदितव्यम् भूत्यैन प्रमदितव्यम् स्वाध्याय प्रवचनाभ्याम् न प्रमदितव्यम् देवपितृकार्याभ्याम् न प्रमदितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यनवध्यानि कर्माणि तानि देवितव्यानि नो इतराणि यान्यस्माकगुम् सुचरितानि तानि त्वयोपास्यानि नो इतराणि ये केचास्मच्छ्रेयागुंसो ब्राह्मणाः तेषाम् त्वयासनेन प्रश्वसितव्यम् श्रद्धया देयम् अश्रद्धया देयम् श्रिया देयम् हिया देयम् भिया देयम् संविदा देयम् अभयदिते कर्म विचिकित्सा वा वृत्तविचिकित्सा वा स्यात् एतत्र ब्राह्मणा सम्मर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मकामास्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथा अथाभ्याख्यातेषु एतत्र ब्राह्मणा सम्मर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मकामास्युः यथा ते तेषु वर्तेरन् तथा तेषु वर्तेथा
एष आदेशः एष उपदेशः एषा वेदोपनिषत् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यम्
स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महिम् महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ
शान्ति शान्ति शान्तिः